देवानानुभजञ्जाना प्रभोजामिभञ्जयाः उक्थेषु दस्यमानेषु यः पश्चादुत्तरे युगे ब्रह्मणस्पतिरेतासम् कर्मारा जिवाधमत् देवानाम् पूर्वे युगे स दस्वता जायत देवानाम् युगे प्रथमे स दस्वता जायत तदा सा अन्नजायन्तरदुत्तानपदस्पति भोर्जज्ञवुत्तानपदो भुव आसा अजायन्त अतिदेर्दक्षो अजायत दक्षाद्वति दिक्पति अतिदिक्यजनष्टदक्षयादुहिता तव ताम् देवा अन्वजायन्त भद्रामृतबन्धवः यद्देवा अदस्व निलेषु संरब्धातिष्ठत अत्रा भोनृत्यतामिव तीव्रो रेणुरपायत यद्देवा यदयो यथा भुवनान्यबिम्बत अत्रा समुद्रा गूढमासूर्यमजभर्तन अष्टौ पुत्रासो अदितेरे जातास्तन्वा अस्पति देवाङ्गुपत्रैः सप्तभिः परामार्ताण्डमास्यत् सप्तभिः पुत्रैरदिरुपत्रैः पूर्ण्यम् युगम् प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत्